यतो नितः दिवेदः सनः परिषदति दुर्गानि विश्वानामेव सिन्धुम् दुरितात्यग्निः तामग्निबह्नान् तपसा ज्वलन्तीम् वै रोचनीम् कर्मफले सुजुष्ठा दुर्गाम् देवीम् शरणमहम् प्रपद्ये सुदरसि दरसे नमः अग्ने त्वम् पारयानम् य अस्मान् स्वस्तिभिरति दुर्गाणि विश्वा होश्च वृद्धे बहुला न भुर्वे भवादोकायतनयाय शय्योः विश्वानि नो दुर्गः जातवेदस्मिन्धुन्दना वातुरितातिपर्षे अग्नेयत्रिवन्मनसा गृणानास्माकम् भोद्य पिता तनूना कृतनाचितगो सह मानमुग्रमग्निगुम्हुवेम परमा सधस्तात् स नः परिषदति दुर्गानि विश्वाक्षामद्देव अतिदुरिताख्यग्निः रत्नाशिषमेभ्य अध्वरेषु सनाश्च होदानम् यत्सत्से स्वाञ्जाग्नेतनवम् विप्रयस्मास्मभ्यम् च सौभगमायजस्व गोभिर्दृष्टमयिषो निषिक्तम् तवेन्द्रविष्णोरनुसञ्जरेम नागस्य पृष्टमभिसंवसा नो वेष्टवेल्लोक इहमानेन्दा कात्यायनाय विद्महे नन्यकुमारि धीमहे तन्ना दुर्गे प्रचोदयात्